धरोवाच भगवन्न परमेशान भक्तिरव्यभिचारिणीं प्रारब्धं भुजमानस्य कथं भवति हे प्रभो। श्रीविष्णुर्वाच प्रारब्धं भुजमानो हि गीताभ्यासरतः सदा समुक्तः स सुखी लोके कर्मणा नोपलिप्यते। महापापादिपापानि गीताध्यानं करोति चेत् क्वचित् स्पर्शं न कुर्वन्ति नलिनी दलबम्बुवत्। गीताया पुस्तकं यत्र यत्र पाठः प्रवर्तते तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै सर्वे देवश्च ऋषयो योगिनः पन्नगाश्च ये गोपाला गोपिका वापि नारदोद्धव पार्षदे सहायो जायते शीघ्रं यत्र गीता प्रवर्तते। यत्र गीता विचारश्च पठनं पाठनं श्रुतं तत्राहं निश्चितं पृथ्वी निवसामि सदैव हि गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहं गीता ज्ञानमुपाश्रित्य त्रिलोकान् पालयाम्यहं गीता मे परमा विद्या ब्रह्मरूपा न संशयः अर्धमात्राक्षरा नित्या स्वानिर्वाच्य पदात्मिका चिदानन्देन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनं वेदत्रयी परानन्दा तत्त्वार्थज्ञानसंयुता योष्टादशं जपे नित्यं नरो निश्चलमानस ज्ञानसिद्धिं च लभते ततो याति परं पदं पाठे समर्थसम्पूर्णे ततोर्धं पाठमाचरेत् तदा गोदानजं पुण्यं लभते नात्र संशयः। त्रिभागं पठमानस्तु गङ्गास्नानफलं लभेत् षडशं जपमानस्तु सोमयागफलं लभेत् एकाध्यायं तु एव नित्यं पठते भक्तिसंयुत रुद्रलोकमवाप्नोति गणो भूत्वा विशेषचिरम् अध्यायं श्लोकपादं वा नित्यं य पठते नर सयाति नरतां यावत् मन्वन्तरं वसुन्दरे। गीताया श्लोकदशकं सप्तपञ्चचतुष्टयं द्वौ त्रिणेकं तदर्धं वा श्लोकानां य पठेन्नर चन्द्रलोकमवाप्नोति वर्षणामयुतं ध्रुवं गीतापाठसमायुक्तो मृतो मानुषतां व्रजेत् गीताभ्यासं पुनः कृत्वा लभते मुक्तिमुत्तमं गीतेत्युच्चारसंयुक्तो म्रियमाणो गतिं लभेत् गीतार्थश्रवणासक्तो महापापयुतोऽपि वा वैकुण्ठं समवाप्नोति विष्णुना सह मोदते। गीतार्थं ध्यायते नित्यं कृत्वा कर्माणि भूरिश जीवन्मुक्तः स विज्ञेयो देहान्ते परमं पदं गीतामाश्रित्य बहवो बुभुजो जनकादयः निद्रुतकल्मषालोके गीतायाता परं पदं गीताया पठनं कृत्वा महात्म्यं नैव यः पठेत् वृथा पाठो भवेत् तस्य श्रम एव ह्युदाहृत। एतन्महात्म्यसंयुक्तं गीताभ्यासं करोति य स तत्फलमवाप्नोति दुर्लभं गतिमाप्नुयात्। सुत उवाच महात्म्यमेतद्गीताया मया प्रोक्तं सनातनं गीतान्ते च पठेद्यस्तु यदुक्तं तत्फलं लभेत्।